इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्रिणः नरेन्द्रमोदिनः फ्रांसदेशे भव्यं स्वागतम् अभवत्। फ्रांसदेशस्य सशस्त्रबलानां मन्त्री सेबेस्टियन लिकॉर्नो इत्यसौ विमानपत्तनस्थानके प्रधानमन्त्रिणः स्वागतं कृतवान्। तत्रैव पेरिसनगरे भारतीयसमुदायैः तस्मै वर्धापनानि प्रदत्तानि। तदनु प्रधानमन्त्री फ्रांसदेशीयेन राष्ट्रपतिना इमैनुअल मैक्रो इत्यमुना समायोजिते एआई इति शिखर सम्मेलने भागग्रहणाय नेतृणां कृते आयोजिते रात्रिभोजने सहभागं स्वीकृतवान्। एकस्मिन् सामाजिक संचार तन्त्रे श्रीमोदी स्वमित्रेण राष्ट्रपतिना मैक्रो इत्यनेन सह मिलित्वा कियद् आनन्दः प्राप्तः इति अभिव्यक्तवान्। प्रधानमन्त्री कार्यक्रमावधौ अमेरिकादेशस्य उपराष्ट्रपतिना जेडी वेंश इत्यमुना साकं वार्तालापं साधितवान्। प्रधानमन्त्री एआई एक्शन इत्येतस्मिन् शिखर सम्मेलने भागं ग्रहीतुं सज्जो वर्तते, यत्र भारतं वैश्विक एआई मानकानां स्थापनार्थं विकासार्थं च बहुविध उद्देश्यैः सह सहाध्यक्षतां करोतीति। फ्रांस भारत देशयोर्मध्ये अनेकेष् द्विपक्षीयेष् सन्धिपत्रेष् हस्ताक्षरस्य सम्भावनापि वर्तते। प्रधानमन्त्री मार्सिले इत्यस्यापि यात्रां विधास्यति। तत्र असौ फ्रांसदेशे प्रथमस्य भारतीय वाणिज्य दूतावासस्य उद्घाटनं करिष्यति। राष्ट्रपती पदासीना द्रौपदी मुर्मुः अद्य नवदिल्ल्यां युनानी दिवसम् आलक्ष्य द्विदिवसीयस्य अन्ताराष्ट्रिय सम्मेलनस्य उद्घाटनं करिष्यति। अत्रावसरे विज्ञान प्रौद्योगिकी मन्त्री डॉ जितेन्द्र सिंहोऽपि उपस्थितो भविष्यति। फरवरी मासस्य एकादश दिनांके प्रसिद्धस्य युनानी चिकित्सकस्य शिक्षकस्य स्वतंत्रता योद्धुः हकीम अजमल खान इत्येतस्य जयन्त्याः उपलक्ष्ये प्रत्येकस्मिन् वर्षे युनानी दिवसः परिपाल्यते। आयुष मन्त्रालयस्य अन्तर्गतं एका प्रमुखा अनुसन्धान परिषद एकीकृत स्वास्थ्य समाधानाय युनानी चिकित्सायां नवाचारः अग्रपथः इत्येतस्मिन् विषये अस्य द्विदिवसीयान्ताराष्ट्रियस्य सम्मेलनस्य आतिथ्यं करोतीति। प्रयागराजे महाकुम्भे श्वः भविष्यमाणात् माघी पूर्णिमा स्नानात् पूर्वं तीर्थयात्रिभ्यः पर्यटकेभ्यः च विशिष्ट व्यवस्थां निर्धारयितुं भारतीय रेल विभागः जवीयगत्या कार्यं सम्पादयति। रेलमन्त्री अश्विनी वैष्णवः ह्यः प्रयागराज रेलवे स्थानके व्यवस्थानां निरीक्षणं कृतवान्। निरीक्षणावधौ श्रीवैष्णवः जनसंवर्दस्य प्रवर्तमानां स्थितिमपि समीक्षितवान्। अपि च वरिष्ठाधिकारिभिः सह रेलसम्बद्धाः सज्जताः अपि चर्चितवान्। रक्षामन्त्री राजनाथसिंहः ह्यः बेंगलुरुनगरे बृहत्तमायाः एरोस्पेस इण्डिया इत्येतस्याः प्रदर्शन्याः उद्घाटनं कृतवान्। अस्मिन् अवसरे प्रवदन् श्रीसिंह एशिया महाद्वीपस्य एरोस्पेस क्षेत्रे बृहत्तमी एषा प्रदर्शनी रक्षा उत्पादने देशस्य बलस्य स्थितिस्थापकतायाः च प्रतिबिम्ब इति अवोचत्। उद्घाटन समारोहे रक्षामन्त्री अद्भुतां वायु प्रदर्शनीम् अपि दृष्टवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना सुस्वास्थ्याय पौष्टिकाहारस्य आवश्यकता अस्तीति छात्रेभ्यः परामर्शो दत्तः। परीक्षाकाले मनस्तापानां निवारणाय अपि तेन प्रत्युपायाः प्रोक्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदिल्ल्यां परीक्षा पे चर्चा इत्येतस्य कार्यक्रमस्य अष्टमे संस्करणे छात्रैः सह संलापो विहितः। बैडमिंटन प्रतिस्पर्धायां एशिया मिश्रित समूह चैंपियनशिप इत्येतस्य शुभारम्भः चीन देशस्य किंगदाओ इत्यत्र जातः। लक्ष्यसेनः मालविका बंसोड इत्यसौ च भारतीय दलस्य नेतृत्वं करिष्यतः इति वार्ताः।